अथ रामगीता श्रीमहादेव उवाच ततो जगन्मङ्गलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् चचार पूर्वाचरितम् रघुत्तमो राजर्षिवर्यैरभिसेवितम् यथा सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथा प्राह पुरातनी शुभा राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघव कदाचिदेकान्त उपस्थितम् प्रभुम् रामम् रमालालितपादपङ्कजम् सौमित्रिरासादितशुद्धभावना प्रणम्य भक्त्या विनयान्वितो ब्रवीत् सौमित्रिरुवाच त्वम् शुद्धबोधोऽसि सर्वदेहिनामात्मास्यधीशोऽसि निराकृति स्वयम् प्रतीयसे ज्ञानदृशाम् महामते पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् अहम् प्रपन्नोऽस्मि पदाम्बुजम् प्रभो भवापवर्गम् तव योगभावितम् यथाञ्जसा ज्ञानमपारवारिधिम् सुखम् तरिष्यामि तथानुषाधिमाम् श्रुत्वाथ सौमित्रिवचोऽखिलम् तदा प्राह प्रपन्नार्तिहर प्रसन्नधी विज्ञानमज्ञानतमोपशान्तये श्रुतिप्रपन्नम् क्षितिपालभूषणः श्रीराम उवाच आदौ स्ववर्णाश्रमवर्णिता क्रिया कृत्वा समासादितशुद्धमानस समाप्य तत्पूर्वमुपात्तसाधन समाश्रयेत् सद्गुरुमात्मलब्धये प्रिया शरीरोद्भव हेतुरात्रिता प्रिया प्रियौ तौ भवतः सुरागिण धर्मेतरौ तत्र पुनः शरीरकम् पुनः क्रियाचक्रवदीर्यते भव अज्ञानमेवास्य हि मूलकारणम् तद्धानमेवात्र विधौ विधीयते विद्यैव तन्नाशविधौ पटीयसी न कर्म ताज्यम् सविरोधमीरितम् नाज्ञानहानिर्न च रागसंशयो भवेत्ततः कर्म सदोषमुद्भवेत् ततः पुनः संसृतिरप्यवारिता तस्माद्बुधो ज्ञानविचारवान् भवेत् ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम् कर्तव्यता प्राणवृतः प्रचोदिता विद्या सहायत्वमुपैति सा पुनः कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात् सदा कार्यमिदम् मुमुक्षुणा ननु स्वतन्त्रा ध्रुवकार्यकारिणी विघ्ना न किञ्चिन्मनसाप्यपेक्षते न सत्यकार्येऽपि यद्वदध्वर प्रकाङ्क्षते न्यानपि कारकादिकान् तथैव विद्या विदित प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये केचिद्वदन्तीति वितर्कवादिनस्तदप्यसन्दृष्टिविरोधकारणात् देहाभिमानादभिवर्धते क्रिया विद्यागताहङ्कृतितः प्रसिद्ध्यति विशुद्धविज्ञानविरोचनाञ्चिता विद्यात्मवृत्तिश्चरमेति भन्यते वदेति कर्माखिलकारकादिभिर्निहन्ति विद्याखिलकारकादिकम् तस्मात्त्यजेत् कार्यमशेषतः सुधिर्विद्याविरोधान्न समुच्चयो भवेत् आत्मानुसन्धानपरायणः सदा निवृत्त सर्वेन्द्रियवृत्तिगोचर यावत् शरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम् नेतीति वाक्यैरखिलम् निषिध्य तच्चात्वा परात्मानमथ त्यजेत् क्रिया यदा परात्मात्मविभेदभेदकम् विज्ञान आत्मन्यवभाति भास्वरम् तदैव माया प्रविलीयतेऽञ्जसा सकारका कारणमात्मसंसृते श्रुतिप्रमाणाभिविनाशिता च सा कथम् भविष्यत्यपि कार्यकारिणी विज्ञानमात्रादमलाद्वितीयस्तस्मादवेद्या न पुनर्भविष्यति यदि स्म नष्टा न पुनः प्रसूयते कर्ताहमस्येति मतिः कथम् भवेत् तस्मात् स्वतन्त्रो न किमप्यपेक्षते विद्याविमोक्षाय विभाति केवला स सा तैत्तिरीय श्रुतिराह सादरं न्यासं प्रशस्ताखिल कर्मणां स्फुटम् एतावदित्याह च याजिनां श्रुतिर्ज्ञानं विमोक्षायन कर्म साधनम् विद्यासमत्वेन तु दर्शितस्त्वया क्रतुर्न दृष्टान्त उदारितः सम फलैः पृथक्त्वात् बहुकारकैः क्रतु संसाद्यते ज्ञानमतो विपर्ययम् स प्रत्यवायो यहमित्यनात्मधीरज्ञ प्रसिद्धा न तु तत्त्वदर्शिन तस्माद्बुधैस्त्याज्यमपि क्रियात्मभिर्विधानत कर्मविधि प्रकाशितम् श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानस विज्ञाय चैकात्म्यमथात्मजीवयो सुखी भवेन्मेरुरिवा प्रकम्पन आदौ पदार्थावगतिर्हि कारणम् वाक्यार्थविज्ञानविधौ विधानत तत्त्वम् पदार्थौ परमात्मजीवकावसीति चैकात्म्यमथानयोर्भवेत् प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय सङ्गृह्यतयोश्चिदात्मताम् संशोधिताम् लक्षणया च लक्षिताम् ज्ञात्वा स्वमात्मानमथा द्वयो भवेत् एकात्मकत्वाज्जहति न सम्भवेत्तथा जहल्लक्षणता विरोधत सोऽयम् पदार्थाविव भागलक्षणायुज्येत तत्त्वम् पदयोरदोषत रसादिपञ्चीकृतभूतसम्भवम् भोगालयम् दुःखसुखादिकर्मणाम् शरीरमाद्यन्तवदादिकर्मजम् मायामयम् स्थूलमुपाधिमात्मन सूक्ष्मम् मनोबुद्धिदशेन्द्रियैर्युतम् प्राणैरपञ्चीकृतभूतसम्भवम् भोक्तुः सुखादेरनुसाधनम् भवेत् शरीमन्यद्विदुरात्मनो बुधा अनाद्यनिर्वाच्यमपीह कारणम् माया प्रधानम् तु परम् शरीरकम् उपाधिभेदात्तु यतः पृथक् स्थितम् स्वात्मानमात्मन्यवधारयेत्क्रमात् कोशेषु पञ्चस्वपि तत्तदाकृतिर्विभाति सङ्गात् स्फटिकोपलो यथा असङ्गरूपो यमजो यतो द्वयो विज्ञायतेऽस्मिन् परितो विचारिते बुद्धेस्त्रिदा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मन अन्योन्यतोऽस्मिन् व्याभिचारितो मृषा नित्ये परे ब्रह्मणि केवले शिवे देहेन्द्रियप्राणमनश्चिदात्मनाम् सङ्गादचस्रम् परिवर्तते धिया वृत्तिस्तमो मूलतयाज्ञलक्षणा यावद् भवेत्तावदसौ भवेद्भव नेति प्रमाणेन निराकृताखिलो हृदा समास्वादितचिद्घनामृत त्यजेदशेषम् जगदात्मसत्र सम्पीत्वा यथाम्बः प्रजहाति तत्फलम् कदाचिदात्मानमृतो न जायते न क्षीयते नापि विवर्धते नव निरस्तसर्वातिशय सुखात्मक स्वयम् प्रभ सर्वगतोऽयमद्वय एवंविधे ज्ञानमये सुखात्मके कथम् भवो दुःखमय प्रतीयते अज्ञानतोऽध्यासवशात् प्रकाशते ज्ञानम् विलीयेत विरोधत क्षणात् यदन्यदन्यत्र विभाव्यते प्रमादध्यासमित्याहुरमुम् विपश्चित असर्पभूते हि विभावनम् यथा रज्ज्वादिके तद्वदपीश्वरे जगत् विकल्पमायारहिते चिदात्मके हङ्कार एष प्रथम प्रकल्पित अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे इच्छादिरागादिसुखादिधर्मिका सदा धिया संसृतिहेतव परे यस्मात् प्रसुप्तौ तदभावतः परसुखस्वरूपेण विभाव्यते हि न अनाद्यविद्योद्भवबुद्धिबिम्बतो जीवः प्रकाशोऽयमितीर्यते चित आत्मा धिया साक्षितया पृथक् स्थितो बुद्ध्या परिच्छिन्न परः स एव हि चिद्बिम्बसाक्ष्यात्मधियाम् प्रसन्नस्त्वेकत्र वासादनलाक्तलोऽभवत् अन्योन्यमध्यासवशात् प्रतीयते जडा जडत्वम् च चिदात्मचेतसो गुरो सकाशादपि वेदवाक्यत संजात विद्यानुभवो निरीक्षितम् स्वात्मानमात्मस्थमुपाधिवर्जितम् त्यजेदशेषम् जडमात्मगोचरम् प्रकाशरूपो हमजो हमद्वयो सकृत् विभातो हमतीव निर्मलो विशुद्ध विज्ञान घनो निरामय संपूर्ण आनंदमयो हम क्रिय सदैव मुक्तो हमर्चित्य शक्तिमानतीन्द्रिय ज्ञानमविक्रियात्मक अनंत पारो हम हर्निशं बुधैर्विभावितो हम हृदि वेदवादिभिः एवं सदात्मान खंडितात्मना विचार्यमाणस्य विशुद्ध भावना अन्याद विद्यामचिरेण कारकैरसायनं यद्वदुपासितं रुज विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलांतराशय विभावयेदेकमनन्य साधनो विज्ञान दृक्केवल आत्मसंस्थित विश्वं यदेतत् परमात्मदर्शनं विलापयेदात्मनि सर्वकारणे पूर्णश्चिदानन्दमयोऽवतिष्ठते न वेद बाह्यं न च किञ्चिदन्तरम् पूर्वं समाधेरखिलं विचिन्तयेदोङ्कारमात्रं सचराचरं जगत् तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधत अकारसंज्ञा पुरुषो हि विश्वतो यकारकस्तैजस ईर्यते क्रमात् प्राज्ञो मकार परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितं ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चान्तिमं मकारमप्यात्मनिचिद्घने परे विलापयेत् प्राज्ञमपि हकारणम् सोऽहं परं ब्रह्म सदा विमुक्तिमद्विज्ञानदृङ्मुक्त उपाधितोमल एवं सदा जात परात्मभावना स्वानन्दतुष्ट परिविस्मृताखिल आस्ते स नित्यात्मसुख प्रकाशक साक्षाद् विमुक्तो चलवारि सिन्धुवत् एवं सदाभ्यस्त समाधियोगिनो निवृत्त सर्वेन्द्रियगोचरस्य हि विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मना ज्ञात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत् सदा मुक्तसमस्तबन्धन प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात् प्रविलीयते तत आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् हित्वा समस्तं विधिवादचोदितं भजेत् स्वमात्मानमथाखिलात्मनाम् आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयात्मना तदा यथा जलं वारिनिदौ यथा पयक्षीरे वियद्व्योम्ननिले यथा निल इत्थं यदीक्षेत हि लोकसंस्थितो जगन्विषयवेति विभावयन्मुनि निराकृतत्वात् श्रुतियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादय यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधन तत्परो भवेत् श्रद्धालुरत्युर्जित भक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि रहस्यमेतत् श्रुतिसारसङ्ग्रहं मया विनिश्चित्य तवोदितं प्रिय यस्त्वेतदालोचयतीह बुद्धिमान् सहमुच्यते पातकराशिभीक्षणात् भ्रातर्यदीदं परिदृश्यते जगन्मायैव सर्वं परिरित्य चेतसा मद्भावना भावित शुद्धमानस सुखी भवानन्दमयो निरामय सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम् सोऽहं स्वपादाञ्चितरेणुभिस्पृशन् पुनामि लोकत्रितयं यथा रविः विज्ञानमेतदखिलं श्रुतिसारमेकं वेदान्तवेद्यचरणेन मयैव गीतं यश्रद्धया परिपठेत् कुरु भक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्ति इति श्रीमद् अध्यात्मरामायणे उत्तरकाण्डे रामगीता सम्पूर्णा इति रामस्तोत्राणि।